एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा राष्ट्रिय स्वतन्त्र दलेन केन्द्रीय समितेः सदस्य पदे नवजनः नियुक्तः वर्तन्ते। दलस्य ह्य उपवेशेन केन्द्रीय समितेः उपवेशेन सुनील लम्सालः, सुदन गुरूङ, प्रतिभा रावलः, भूपदेव शाह, पुरूषोत्तम सुप्रभात यादवः, डाक्टर मनोहर प्रधान, बसुमाया तामाङ, सुरेन्द्र चौधरी, डाक्टर भक्तबहादुर राई च केन्द्रीय सदस्य पदे नियुक्ताः वर्तन्ते। उपवेशेन सह महामन्त्री पदे पुरूषोत्तम सुप्रभात यादवः, कोषाध्यक्ष पदे डाक्टर मनोहर प्रधान, सह कोषाध्यक्ष पदे बसुमाया तामाङ, दलस्य प्रवक्त्री पदे जगदीश खरेलः, सह प्रवक्त्री पदे डाक्टर नमिता यादवः, सुरेन्द्र चौधरी च नियुक्ताः वर्तन्ते इति दलस्य महामन्त्री विपिन कुमार आचार्यः असूचयत्। महामन्त्रिणः आचार्यस्य अनुसारेण दलस्य सचिवालय सदस्य पदे गणेश पराजुली, शिशिर खनालः, विराज भक्त श्रेष्ठः, पुरूषोत्तम सुप्रभात यादवः, डाक्टर मनोहर प्रधानः, कविन्द्र बुर्लाकुटी, जगदीश खरेलः, लिमा अधिकारी आचार्य, दीपक राज बोहरा, समीक्षा बास्कोटा, शिव नेपाली, इन्दिरा राणा मगरः, मनिष झाच मनोनिता वर्तन्ते। एवमेव संगठन विभाग प्रमुख पदे प्रमोद नेउपाने, अन्तर्राष्ट्रिय सम्बन्ध विभागस्य प्रमुख पदे शिशिर खनालः, सार्वजनिक सेवा जनवेदना व्यवस्थापन विभागस्य प्रमुख पदे विजय जैरू, जनस्वास्थ्य विभागस्य प्रमुख पदे डाक्टर तोषिमा कार्की, पूर्वाधार विभाग प्रमुख पदे निशा डागी, अर्थ विभागस्य प्रमुख पदे लिमा अधिकारी आचार्यस्य नियुक्ता वर्तन्ते। उपवेशेन प्रत्यावर्तनाधिकार सम्बद्धं प्रारूपं निर्मातुं महामन्त्रिणः आचार्यस्य संयोजकत्वे एकादश सदस्यात्मिकां समितिं संघटयितुं निर्णीतमस्ति। रासोपा दलस्य विधानस्य अनुसारेण सभापति एकः, केन्द्रीय सदस्येष् राष्ट्रिय महाधिवेशनात् निर्वाचितः 99, मनोनीतः 51, प्रदेश सभापतयः 7, पदेन केन्द्रीय सदस्याश्चेति आहत्य 58, सदस्यात्मिकायाः केन्द्रीय समितेः व्यवस्था वर्तते। राष्ट्रिय सभया प्रतिनिधि सभातः सन्देशं प्राप्तं। द्वाचत्वारिंशदुत्तर 2000 विक्रम वर्षस्य नेपाल विशेष सेवाधिनियमस्य तात्कालिकीं व्यवस्थां पुनरुज्जीवयितुं निर्मितम् एतद् विक्रम वर्षीयं विधेयकमाधृत्य विचारितामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। राष्ट्रिय सभायाः स्थने उपवेशी सभाध्यक्ष नारायण प्रसाद दाहालः प्रस्तावमिमं निर्णयार्थं प्रस्तुतवान्। तत्पूर्वं प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सोभिता गौतम इत्यनया विधेयकमाधृत्य विचारेतामिति निगद्य प्रस्तावयं प्रस्तुतः आसीत्। राष्ट्रियसभायाः स्थनोपवेशी सांसदः विष्णुकुमारी सापकोटा, आनन्द प्रसाद ढुंगाना, विष्णुबहादुर विश्वकर्मा, रूक्मिणी कोइराला, मोहम्मद खालिद, जगत तिमिलसिना सामयिक विषयेष् सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रियसभायाः स्थनोपवेशे सांसदानां प्रश्नान् उत्तरयन् अर्थमन्त्री डा सोनी वाग्ले औषधीय प्रयोजनाय भंगायाः उत्पादने व्यवस्थापने च अर्थमन्त्रालयेन सहजीकरणं करिष्यते इति प्रतिबद्धताम् अभिव्यनक्। राष्ट्रियसभायाः अपरोपवेशः भाद्रमासस्य 9 दिवसे प्रातः 10:15 वस्ता। बागमती प्रदेशस्य मुख्यमन्त्रिणा किरण थापा मगर इत्यनेन अस्यैव भाद्रमासस्य 8 दिवसे विश्वासस्य मतं ग्रहीष्यते। मुख्यमन्त्री थापा भाद्रमासस्य 8 दिवसे उपवेक्ष्यमाणे प्रदेशसभायाः उपवेशे विश्वासस्य मतं ग्रहीष्यति इति प्रदेशसभा सचिवालयेन ज्ञापितं वर्तते। थापा मगर इत्यमुं गत बृहस्पतिवासरे प्रदेश प्रमुखः दीपक प्रसाद देवकोटा मुख्यमन्त्री पदे नियुक्तवान् आसीत्। प्रधानमन्त्री बालेन्द्र शाह पारिवारिक भ्रमणस्य क्रमे ह्य पोखरा नगरे प्राप्तवान् अस्ति। प्रधानमन्त्री शाह माछापुच्छ्रे ग्रामपालिकायाः 6 वडा क्षेत्रस्य अन्नपूर्ण इको भिलेज इति अतिथिगृहे स्थितवान् अस्ति। परिवारस्य सदस्यैः काष्ठमण्डपात् स्थलमार्गेण पोखरा नगरं प्राप्तः शाह अद्य मुस्ताङ जनपदं प्रति गमिष्यति। काष्ठमण्डप उपत्यकायाः अवकर व्यवस्थापनस्य वर्तमान समस्यायाः समाधानस्य उपायानां दीर्घकालिक व्यवस्थापनस्य च उपायानां विषयेषु उच्चस्तरीयान्तर निकायैर्विमृष्टमस्ति। ह्यः पूर्वाधार विकास मन्त्रालये नुवाकोट जनपदस्य प्रथमौडा क्षेत्रात् प्रतिनिधिसभायाः सदस्यः सूचना संचार मन्त्रिणो डॉ विक्रम तिमिल सिन्हाविदस्य अध्यक्षतायां सम्भूते विमर्शने उपत्यकायाः विभिन्नानां पालिकानां प्रमुखाणां वातावरण विभागस्य अधिकारिणाम् अवकर व्यवस्थापनेन सह सम्बद्धानां प्रमुखाणाम् अवकर व्यवस्थापन विज्ञानां वंचरी डाँडा अवकर व्यवस्थापन स्थल प्रभावितानां जनानां च उपस्थिति रासीत्। वंचरी डाँडा सैनिटरी ल्याण्डफिल साइट इत्याख्यस्य अवकर व्यवस्थापन क्षेत्रस्य वर्तमानायाः अवस्थायाः तत्रत्यानां समस्यानां प्रभावितानां जनानां वेदनायाः आगामि कार्यदिशायाश्च विषयेषु सम्भूतेन विमर्शनेन अवकर व्यवस्थापनस्य दायित्वं स्थानीयस्तरस्य एवास्ति, परं दीर्घकालिक समाधानाय संघीय सर्वकारस्य स्थानीयस्तराणां सम्बद्धानां निकायानां च मध्ये समन्वयस्य आवश्यकता अस्ति इति निष्कर्षः प्रकाशितो वर्तते। तदवसरे सूचना संचार मन्त्री डॉ तिमिल सिन्हा वंचरी डाँडा प्रभावित क्षेत्रस्य जनानां समस्या अवकर व्यवस्थापनञ्च सर्वकारेण उच्च प्राथमिकतायां स्थापिताः सन्ति इति अगदत्। शिक्षा खेलकूद मन्त्री सस्मित पोखरेल शिक्षा क्षेत्रस्य विधिगतानां नीतिगतानां च समस्यानां दीर्घकालिक रूपेण समाधानं कर्तुं कार्यं विधीयमानमस्ति इति उक्तवान् वर्तते। ह्य धनगढ़ी नगरे आयोजिते कार्यक्रमे शिक्षा मन्त्री पोखरेल विद्यालयान् विद्यार्थिनश्च केन्द्रे संस्थाप्य कार्यं विधातुं शिक्षकान् अनुरुणत्।